ललिता सहस्रनाम स्तोत्र फलश्रुतिः इत्येतन्नाम सहस्रं कथितन्ते घटोद्भवा रहस्यानां रहस्यं च ललिता प्रीतिदायकम् सर्वापमृत्युशमनम् कालमृत्युनिवारणम् सर्वज्वरातिशमनम् दीर्घायुष्यप्रदायकम् अनेन सदृशं स्तोत्रम् न भूतं न भविष्यति सर्वरोगप्रशमनम् सर्वसम्पत्प्रवर्धनम् पुत्रप्रदमपुत्राणाम् पुरुषार्थप्रदायकम् इदं विशेषा श्रीदेव्याः स्तोत्रम् प्रीतिविदायकम् जपे नित्यं प्रयत्नेन ललितोपास्ति तत्परः प्रातः स्नात्वा विधानेन सन्ध्या कर्म समाप्य च पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा रहस्यनाम साहस्रम् इदं पश्चात् पठेन्नरः जन्म मध्ये सकृच्छापि यतत् पठते सुधीः तस्य पुण्यफलं वक्ष्ये शृणुत्वं कुम्भसम्भव गङ्गादि सर्वतीर्थेषु यस्नायात् कोटिजन्मसु कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके कुरुक्षेत्रे तु यो दद्या कोटिवारं रविग्रहे कोटिसुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु यः कोटिहयमेधानाम् आहरेद् गाङ्गरोधसी आचरेत् कूपकोटिर्यो निर्जले मरुभूतले दुर्भिक्षेयः प्रतिदिनम् कोटिब्राह्मणभोजनम् श्रद्धया परया कुर्यात् सहस्रं परिवत्सरान् तत्पुण्यं कोटिगुणितं भवेत् पुण्यमनुत्तमम् रहस्यनाम साहस्रे नाम्नोपेकस्य कीर्तनात् रहस्यनाम साहस्रे नामैकमपि यः पठेत् तस्य पापानि नश्यन्ति महान्त्यपि न संशयः नित्यकर्मानुष्ठानात् निषिद्धकरणादपि यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवं बहुनात्र किमुक्तेन शृणुत्वं कुम्भसम्भव तत्रैव नान्नो यासक्तिः पातकानां निवर्तने तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश यश्चक्त्वा नाम साहस्रं पापहानिमभीप्सति स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते भक्तो यः कीर्तये नित्यम् इदं नाम सहस्रकम् तस्मै श्रीललिता देवी प्रीताभीष्टं प्रयच्छति अकीर्तयन्निधं स्तोत्रं कथं भक्तो भविष्यति नित्यं सङ्कीर्तनासक्तः कीर्तयेत् पुण्यवासरे सङ्क्रान्तौ विषुवे चैव स्वजन्मात्रितये नये नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे कीर्तयेन्नाम साहस्रं पौर्णमास्यां विशेषतः पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकां पञ्चोपचारैः सम्पूज्य पठेन्नाम सहस्रकम् सर्वे रोगाः प्रणश्यन्ति दीर्घायुष्यञ्च विन्दति अयम् आयुष्करो नाम प्रयोगः कल्पचोदितः ज्वरातिं शिरसि स्पृष्ट्वा पठेन्नाम सहस्रकम् तत्क्षणात् प्रशमं याति शिरो बाधा ज्वरोऽपि च सर्वव्याधिनिरुत्यर्थं स्पृष्ट्वा भस्मजपेदिदम् तद्भस्मधारणादेव नश्यन्ति व्याधयक्षणात् जलं सम्मञ्च्य कुम्भस्थम् नाम साहस्रतो मुने अभिषिञ्चे गृहगस्तान् ग्रहा नश्यन्ति तत्क्षणात् सुधासागरमध्यस्थाम् ध्यात्वा श्रीललिताम्बिकाम् यः पटेन्नाम साहस्रम् विषम् तस्य विनश्यति वन्ध्यानाम् पुत्रलाभाय नाम साहस्रमन्त्रितम् नवनीतम् प्रदद्यातु पुत्रलाभम् भवेद्ध्रुवम् देव्या पासेन सम्बन्धाम् आकृष्टा मङ्कुशेन च ध्यात्वाभीष्टाम् स्त्रियम् रात्रौ जपे नाम सहस्रकम् आयाति स्वसमीपम् सा यद्यप्यन्तः पुरम् गता राजा कर्षण कामश्चेत् राजा वसत दिग्मुखः त्रिरात्रम् यः पठेदेतत् श्रीदेवी ध्यान तत्परः स राजा पारवश्येन तुरङ्गम् वामतम् गजम् आरुह्यायाति निकटम् दासवत् प्रणिपत्य च तस्मै राज्यम् च कोसम् च ददात्येव वसङ्गतः रहस्य नाम साहस्रम् यः कीर्तयति नित्यसः तन्मुखालोकमात्रेण मुह्ये लोकत्रयम् मुने यस्त्विदम् नाम साहस्रम् सकृत् पठति भक्तिमान् तस्य ये सत्रवस्तेषाम् निहन्ति सरभेश्वरः यो वाभिचारम् कुरुते नाम साहस्रपाठके निर्वत्य तत्क्रियाम् हन्यात् तम् वै प्रत्यङ्गिरा स्वयम् ये क्रूरदृष्ट्या वीक्षन्ते नाम साहस्रपाठकम् तासन्धान् कुरुते क्षिप्रम् स्वयम् मार्ताण्डभैरवः धनम् यो हरते चोरैः नाम साहस्रजापिनः यत्र यत्र स्थितम् वापि क्षेत्रपालो निहन्ति तम् विद्या सुकुरुते वादम् यो विद्वान् नाम जापिनः तस्य वाक्स्तम्भनम् सद्यः करोति न कुलेश्वरी यो राजा कुरुते वैरम् नाम साहस्रजापिना चतुरङ्गबलम् तस्य दण्डिनी संहरेत् स्वयम् यः पटेन्नाम साहस्रम् षण्मासम् भक्तिसंयुतः लक्ष्मी चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे मासमेकम् प्रतिदिनम् त्रिवारम् यः पठेन्नरः भारती तस्य जिह्वाग्र रङ्गे नृत्यति नित्यसः यस्त्वेकवारम् पठति पक्षमात्रमतन्द्रितः मुह्यन्ति कामवसगाः मृगाक्षस्तस्य वीक्षणात् यः पठेन्नाम साहस्रम् जन्म मध्ये सकृन्नरः तद्दृष्टिगोचरात् सर्वे मुच्यन्ति सर्वकिल्बिषैः यो वेत्ति नाम साहस्रम् तस्मै देयम् द्विजन्मने अन्नम् वस्त्रम् धनम् धान्यम् धान्येभ्यस्तु कदाचन श्रीमन्तराजम् यो वेत्ति श्रीचक्रम् यः समर्चति यः कीर्तयति नामानि तम् सत्पात्रम् विदुर्भुदाः तस्मै देयम् प्रयत्नेन श्रीदेवी प्रियमिच्छत न कीर्तयति नामानि मन्त्रराजम् न वेत्ति यः पशुतुल्यः स विज्ञेयः तस्मै दत्तम् निरर्थकम् परीक्ष्य विद्या विदुषः सैभ्यो दद्या द्विचक्षणः श्रीमन्त्रराजः सदृशो यथा मन्त्रो न विद्यते देवता ललिता तुल्या यथा नास्ति घटोद्भव रहस्य नाम साहस्र तुल्या नास्ति तथा स्तुतिः लिखित्वा पुस्तके यस्तु नाम साहस्रमुत्तमम् समच्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी बहुनात्र किमुक्तेन शृणुत्वं कुम्भसंभव ज्ञानेन सदृशं स्तोत्रं सर्वतन्त्रेषु विद्यते तस्मादुपासको नित्यं कीर्तयेदिदमादरात् येभिर्नाम सहस्रैस्तु श्रीचक्रं योच्चयेत् सकृत् पद्मैर्वा तुलसीपत्रैः कल्हारैर्वा कदम्बकैः चम्पकैर्जातिकुसुमैः मल्लिकाकरवीरकैः उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः सा वेत्ति ललिता देवी स्वचक्राजनजं फलम् अन्ये कथं विजानीयुः ब्रह्माद्या स्वल्पमेधसः प्रतिमासं पौर्णमास्या मेभिर्नाम सहस्रकैः रात्रौ यश्चक्रराजस्थाम् अर्चयेत् परदेवतान् स एव ललिता रूपा सद्रूपा ललिता स्वयम् न तयो विद्यते भेदो भेदकृत् पापकृत् भवेत् महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् अर्चयेन्नाम सहस्रैः तस्य मुक्तिकरे स्थिता यस्तु नाम सहस्रेण शुक्रवारे समर्चयेत् चक्रराजे महादेवीं तस्य पुण्यफलं शृणु सर्वान् कामान् अवाप्नोति सर्वसौभाग्यसंयुतः पुत्रपौत्रादि संयुक्तो भुक्त्वा भोगान्यधेप्सितान् अन्ते श्रीललिता देव्याः सायुज्यमति दुर्लभम् प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः यः सहस्रं ब्राह्मणानां मेभिर्नाम सहस्रकैः समच्च भोजयेद्भक्त्या पायसापूपषड्रसैः तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते निष्कामः कीर्तयेद्यस्तु नाम सहस्रमुत्तमम् ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् धनाधीधनमाप्नोति यशोद्धि चाप्नुयाद्य सः विद्याधि चाप्नुयाद्विद्याम् नाम सहस्रकीर्तनात् ज्ञानेन सदृशं स्तोत्रम् भोगमोक्षप्रदं मुने कीर्तनीयमिदं तस्मात् भोगमोक्षाद्भिन्नरैः चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा स्वधर्मासमनुष्ठान वैकल्या परिपूर्तये कलौ पापैकबहुले धर्मानुष्ठानवर्जिते नाम सङ्कीर्तनं मुक्त्वा नृणा नान्यपरायणम् लौकिकाद्वचनान्मुख्यम् विष्णुनामानुकीर्तनम् विष्णुनाम सहस्रौच्च शिवनामैकमुत्तमम् शिवनाम सहस्राच्च देव्यानामैकमुत्तमम् देवीनाम सहस्राणि कोटिशः सन्ति कुम्भज तेषु मुख्यम् दशविधम् नाम सहस्रमुच्यते गङ्गा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललितादश गङ्गा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललितादश गङ्गा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललितादश रहस्य नाम साहस्रम् इदं श्रेष्ठं दशस्वपि तस्मात् सङ्कीर्तये नित्यम् कलिदोष निवृत्तये मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः विष्णुनाम पराः केचित् शिवनाम पराः परे न कश्चिदपि लोकेषु ललिता नाम तत्परः येनान्यदेवता नाम कीर्तितं जन्मकोटिषु तस्यैव भवति श्रद्धा श्रीदेवी नाम कीर्तने चरमे जन्मनि यथा श्रीविद्योपासको भवेत् नाम साहस्रपाठश्च तथा चरम जन्मनि यथैव विरला लोके श्रीविद्याचारवेदिनः तथैव विरला लोके नाम साहस्रपाठकाः मन्त्रराजजपं चैव चक्रराजार्चनं तथा रहस्य नाम पाठश्च नाल्पस्यातपसः फलम् अपठन् नाम साहस्रम् प्रीणयेद्यो महेश्वरी न चक्षुषा विना रूपम् पश्येदेव विमूढदीः रहस्य नाम साहस्रम् त्यक्त्वा यः सिद्धिकामुकः स भोजनम् विना नूनम् क्षुण्णिवृत्तिमभीप्सति यो भक्तो ललिता देव्याः सन्नित्यम् कीर्तयेदिदम् नान्यथा प्रियते देवी कल्पकोटिशतैरपि तस्माद्रहस्य नामानि श्रीमातुः प्रयतः पठेत् इति ते कथितम् स्तोत्रम् रहस्यम् कुम्भसम्भव नाविद्यावेदिने ब्रूयात् ना भक्ताय कदाचन यथैव गोप्या श्रीविद्या तथा गोप्यमिदम् मुने पशुतुल्येषु न ब्रूयात् जनेषु स्तोत्रमुत्तमम् यो ददाति विमूढात्मा श्रीविद्यारहिताय च तस्मै कुप्यन्ति योगिन्यो सोऽनर्थम् सुमहान् स्मृतः रहस्य नाम साहस्रम् तस्मात् सङ्गोपयेदिदम् स्वातन्त्रेण मया नोक्तम् तवापि कलशोद्भव ललिता प्रेरणेनैव मयोक्तम् स्तोत्रमुत्तमम् कीर्तनीयमिदम् भक्त्या कुम्भयोने निरन्तरम् तेन तुष्टा महादेवी तवाभीष्टम् प्रदास्यति इत्युक्त्वा श्रीहयग्रीवः ध्यात्वा श्रीललिताम्बिकाम् आनन्दभग्नहृदयः सद्यः पुलकितोऽभवत् इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागश्च संवादे श्रीललितारहस्य नाम साहस्रफलनिरूपणम् सम्पूर्णम्।